ഏക നിമിഷം.
അഥ സംജ്ഞാപ്രകരണം പുസ്തകം ഉദ്ഘാടയാമഹ. ആ ഈവൂണ് ലുക്ക് തത്ര ലുക്കാരസ്യ ലുക്ക് ല ഇവ ഉച്ചാരണം കർത്തവ്യം ഇതി ജ്യേഷ്ഠാഹ വൈയാകരണാഹ വദന്തി. ഐ ഉണ് ലുക്ക് ഏവോങ് ഐ ഔച് ഹയവരട് ലണ് ഞമഗണനം ജഭൈ ഘടധശ് ജപഗടദശ് ഖഫ ഛഠ ഥ ചടതവ് കപൈ ശസസര് ഹല് ഇതി മാഹേശ്വരാണി സൂത്രാണി അനാദിസംജ്ഞാർത്ഥാനി യേഷാമന്ത്യാ ഇതഃ ഹകാരാദിഷു അകാരഃ ഉച്ചാരണാർത്ഥഃ ലണ് മധ്യേ തു ഇത് സംജ്ഞകഃ ഇതി മൂലം. മൂലേ ഏതാവദസ്തി ഏതാവദേവ അദ്യ പശ്യാമഃ. തത്ര മമ സുഹൃദ് ഏകഃ അസ്തി തത്ര ശൃംഗഗിരിയാം വിനായകരചതഃ ഇതി. സഹ പാണിനിസൂത്രവിഷയെ ബഹു തത്ര മാഹേശ്വരസൂത്രവിഷയെ ബഹു റിസർച്ച് കൃതവാൻ, സംശോധനം കൃതവാൻ. അത്ര ഭവന്തഃ കൃപയാ പശ്യന്തു സ്ക്രീൻ മധ്യെ. യദി മാഹേശ്വരസൂത്രാണാം യഥാ മയാ സ്ലൈഡ് മധ്യെ അറേഞ്ച് കൃതം തഥാ യദി അറേഞ്ച് ക്രിയത്തെ ചേത് സാക്ഷാത് തത്ര ലിംഗ ഇവ ദൃശ്യത്തെ. തത്ര ബാണലിംഗഃ യഥാ ദൃശ്യത്തെ ലിംഗ ഇവ ദൃശ്യത്തെ തത്. അത്ര പശ്യന്തു ന്യമഗണനം ഇതി മധ്യഭാഗഃ കിച്ചിത് ദീർഘം വിദ്യതെ. ഏവം ഖപ ഛട ഥ ചടതൗ എതത് ലിംഗ ഇവ ദൃശ്യത്തെ. തദേവ ഏകം വൈശിഷ്ട്യം ഇതി തേന മമ സുഹൃദാ ഉക്തം. അഹമപി ജ്ഞാത്വാ ബഹു സന്തോഷം അനുഭൂതവാൻ. ഏഷഃ ഏവ പ്രഥമഃ വിഷയഃ അത്ര മാഹേശ്വരസൂത്രവിഷയെ. അന്യഃ വിഷയഃ അഗ്രിമ സ്ലൈഡ് മധ്യേ അസ്തി. അത്ര കിം കിം അസ്തി ഇതി പശ്യാമഃ. ഐ ഉൺ ലുക് ഏവോങ് ഐ ഔച്ച് തത്ര പ്രായഃ യദി അന്തിമ വർണം വയം ത്യജാമഃ തത്ര സ്വരാണാം ഉല്ലേഖ വിദ്യതെ. പ്രഥമ ചതുർഷു സൂത്രേഷു സ്വരാണാം ഉല്ലേഖ വിദ്യതെ. പ്രായഃ അസ്മാഭിഃ വക്തും ശക്യതെ അത്ര സ്വരാഃ സന്തി ഇതി വക്തും ശക്യതെ. തത്ര അന്തിമവർണവിഷയെ വയം അഗ്രേ പശ്യാമഃ. കിം കരണീയം അന്തിമവർണസ്യ ഇതി അഗ്രേ പശ്യാമഃ. അനന്തരം പുനഃ കിഞ്ചിത് ദീർഘദൃഷ്ട്യാ പശ്യാമശ്ചേത് ഹയവരട് ലണ്യമഗണനം ജപൈ ഗടധശ് ജപഗടദശ് ഖപ ഛട ചടതൗ കപൈ ശസസര് ഹല്. അത്ര വയം പശ്യാമശ്ചേത് ഹയവരട്ട് ലണ് മധ്യേ തത്ര പുനഃ അത്ര അന്ത്യവർണാനാം നിഷ്കാസഃ ത്യാഗഃ ക്രിയത്തെ ചേത് ഹ യ വ ര ല ഹ യ വ ര ല ഇത്യുക്തെ അന്തസ്ഥാനാം ഗണന വിദ്യതെ. ഹകാരസ്യ അന്തസ്ഥസ്യ ഗണന വിദ്യതെ. കിമർത്ഥം പാണിനിനാ ഏവം കൃതം ഇതി അഗ്രേ അഗ്രേ വയം ജ്ഞാസ്യാമഃ. ന്യമഗണനം ഇത്യത്ര വയം അസ്മാഭിഃ ജ്ഞാതും ഝടിതി വക്തും ശക്യതെ. തത്ര പഞ്ചമവർണാഃ വർഗസ്യ പ്രഥമ പഞ്ചമവർണാഃ തത്ര സന്തി. പ്രായഃ അനുനാസികാനാം നിർദ്ദേശഃ തത്ര അസ്തി ഇതി അസ്മാഭിഃ ഝടിതി വക്തും ശക്യതെ. അനന്തരം അഷ്ടമനവമ സൂത്രയോഃ തത്ര വർഗസ്യ ചതുർത്ഥവർണാനാം ഉല്ലേഖ വിദ്യതെ. ജ ഭ ഘ ധ ധ തത്ര വർഗസ്യ ചതുർത്ഥവർണാഃ സന്തി. ദശമസൂത്രേ ജപഗടദശ് ഇത്യത്ര ജപഗടദ ഏതേ വർഗസ്യ തൃതീയവർണാഃ സന്തി. ഇദാനീം वयं पंचम सूत्राधार आरभ्य दशम सूत्र पर्यन्तं यदि वयं गणनां कुर्मः अंतिम वर्णं विहाय त्यागं कुर्मः चेत् मृदु व्यञ्जनानि आगच्छन्ति. मृदु व्यञ्जनानां संग्रहः पंचम वर्णादारभ्य पंचम सूत्रादारभ्य दशम सूत्र पर्यन्तं मृदु वर्णानां संग्रहः विद्यते. एवमेव एकादशम सूत्रादारभ्य चतुर्दशम सूत्र पर्यन्तं यदि वयं पश्यामः तत्र वर्गस्य द्वितीय वर्णाः प्रथम वर्णाः सन्ति, ऊष्माणः सन्ति, कर्कश व्यञ्जनानि तत्र उल्लिखिताः सन्ति. एवं पञ्चमवर्णात् चतुर्दशम पञ्चमसूत्रात् चतुर्दशसूत्रपर्यन्तं व्यञ्जनानां सङ्ग्रहः विद्यते. आदौ चतुर्षु सूत्रेषु स्वराणां सङ्ग्रहः विद्यते. पञ्चमसूत्रादारभ्य चतुर्दशमसूत्रपर्यन्तं चतुर्दशसूत्रपर्यन्तं व्यञ्जनानां सङ्ग्रहः विद्यते. एवं स्थूलरूपेण अस्माभिः ज्ञातुं शक्यते. तर्हि पाणिनिना किं वर्णानाम् उपदेशार्थं माहेश्वरसूत्राणि रचितानि वा? एतत् अत्र चन्दन पुरोहित महाभागः एकं प्रश्नं पृष्टवान्, हकारः द्विवारं प्रयुक्तं किमर्थम् इति. तत् शास्त्रीयप्रश्नः, तत् सः प्रश्नः शास्त्रीयप्रश्नः, तस्य उत्तरं दीयते, परन्तु इदानीं न दीयते. यदा प्रत्याहाराणां ज्ञानं भवति तदनन्तरम्, इत्युक्ते कक्षाद्वयानन्तरम् अवश्यं हकारद्वयं किमर्थं प्रयुक्तम् इति अवश्यम् उच्यते. कृपया तावत्पर्यन्तं प्रतीक्षां करोतु इति प्रार्थये. यतोहि इदानीं मया उच्यते चेत् ये व्याकरणं पूर्वं पठितवन्तः तेभ्यः ज्ञानम् अवश्यं भवति. ये व्याकरणम् इदानीं प्रथमतया इदानीं पठन्तस्सन्ति तेषां मध्ये तेषां मनसि क्लेशः भवति. अतः प्रत्याहारज्ञानानन्तरम् अहम् अवश्यं तत्प्रश्नस्य उत्तरं दास्यामि. इदानीं पाणिनिना माहेश्वरादागतानि माहेश्वरसूत्राणि इति प्रथमं अष्टाध्याय्यामपि तस्य उल्लेखः प्रथममस्ति. तर्हि कथम् आगतम् एतानि सूत्राणि इति पश्यामः. तत्पूर्वम् अक्षरं नाम किम्? तत्र वर्णस्य नामान्तरमेव अक्षरम् इति वयं कथयामः. न अक्षरम् अक्षरम् इत्यपि अस्माभिः उच्यते. किमर्थम् उच्यते चेत् वैयाकरणाः शब्दनित्यत्ववादिनः. शब्दस्य नाशः वर्णस्य नाशः कदापि न भवति इति वैयाकरणाः भावयन्ति. तत्र शब्दब्रह्मरूपं परब्रह्मं ते प्राप्तुमिच्छन्ति. अतः एव शब्दनित्यत्ववादिनः वैयाकरणाः. अक्षरम् अश्नुते इति अक्षरं सर्वं व्याप्नोति इत्यर्थः. तत्र यैः तर्कसङ्ग्रहः पठितः तत्र शब्दगुणकम् आकाशम् इत्युक्ते आकाशः सर्वत्र व्याप्तो भवति. अश्नुते इति अक्षरम् अक्षरं नाम अश्नुते इति अक्षरं सर्वं व्याप्नोति इति अर्थः. श्रवणेन्द्रियग्राह्यम् अक्षरम् इत्यपि कथ्यते. तच्च कण्ठताल्वादिस्थानेन अभिव्यज्यते. तेषां वर्णानाम् अक्षराणां वा यत्र उपदेशः क्रियते स एव वर्णसमाम्नायः इति कथ्यते. तत्र आम्नायशब्दस्य वेदः इत्यर्थः. इत्युक्ते एते एतानि सूत्राणि छन्दोवत् भवन्ति इति महाभाष्यकारः वदति. पाणिनिसम्मतः अक्षरसमाम्नायः चतुर्दश माहेश्वरसूत्रेषु उपदिष्टः. एतानि एव शिवसूत्राणि प्रत्याहारसूत्राणि इत्यपि कथ्यन्ते. अत्र एकः प्रश्नः भवति, अस्माभिः विशेषतया अक्षराणां स्वरूपज्ञानार्थं माहेश्वरसूत्राणि आवश्यकानि वा? किमर्थं माहेश्वरसूत्राणाम् उल्लेखः कृतः पाणिनिना? मातृकापाठादेव इष्टसिद्धिः भवति किल इति अस्माकं प्रश्नः. मातृकापाठं नाम अ आ इ ई इति माता अस्माकं कृते वदति अक्षराणां ज्ञानं प्राप्नुहि हे शिशो इति माता पाठयति, स एव मातृकापाठः इति उच्यते. अस्माभिः पाठशाला मध्ये पठ्यते अ आ इ ई इत्यादिकं पठ्यते किल, स एव मातृकापाठः इति उच्यते. मातृकापाठादेव अस्माभिः अक्षरज्ञानं मातृकापाठादेव भवति. किमर्थं माहेश्वरसूत्राणाम् उपदेशः इति प्रथमः प्रश्नः उदेति. तदा उच्यते, न तु वर्णस्वरूपबोधार्थं माहेश्वरसूत्राणाम् उपदेशः, इत्युक्ते अत्र अकारः एवं लेखनीयम्, एवमस्ति अकारस्य ध्वनिः, आ इति ध्वनिः अस्ति इति न तु वर्णस्वरूपबोधार्थं, परन्तु अनादिसंज्ञार्थम्, अत एव तत्र मूले अस्ति इति माहेश्वराणि सूत्राणि अनादिसंज्ञार्थानि. अनादिसंज्ञार्थानि नाम किम् इति अग्रे उच्यते. ननु इमानि सूत्राणि मुनित्रयग्रन्थबहिर्भूतत्वात् अप्रमाणं वा इति पूर्वपक्षः कश्चित् प्रश्नं करोति. कश्चित् वदति, व्याकरणशास्त्रे भवद्भिः उक्तं प्रधानाचार्याः त्रयः एव, तेषामेव प्रामाण्यं स्वीकर्तव्यम्, अन्येषां न इति भवद्भिः उक्तम्. इदानीं माहेश्वरसूत्राणि इति तद् पाणिनिना न उक्तम्, अतः मुनित्रय ग्रन्थ इतोपि मुनित्रयस्य ग्रन्थस्य बहिर्भूत मुनित्रयाणां ग्रन्थे स तत् न अन्तर्भवति. कथं तस्य प्रामाण्यम् अस्माभिः स्वीकर्तुं शक्यते इति प्रश्ने कृते, अत एव तत्र मूले विद्यते माहेश्वराणि सूत्राणि एतानि, माहेश्वरात् आगतानि, माहेश्वरादेव प्राप्तानि. केन प्राप्तानि? पाणिनिना प्राप्तानि. तर्हि एतस्य प्रयोजनं किम्? अनादिसंज्ञार्थमेव प्रयोजनम्. अनादिसंज्ञा नाम किम्? तदग्रे पश्यामः. एतैः एव सम्पूर्णं, एतैः सूत्रैः एव सम्पूर्णं पाणिनीयं व्याकरणं समुपनिबद्धं विद्यते. इत्युक्ते दीस् 14 सूत्रास् आर् दि फौण्डेशन् आफ् दि ग्रामर् लेड् बै पाणिनि. वितौट् दीस् 14 सूत्रास् पाणिनि कुड् नेवर् हाव् कन्स्ट्रक्टेड् दि अष्टाध्यायी. सो वाट् इस् द प्रमाण, अत्र किं प्रमाणमस्ति? तत् एतत् माहेश्वरात् आगतानि इति इत्युक्ते पुराणप्रमाणम् अस्माभिः स्वीक्रियते. नन्दिकेश्वरकाशिका इति एकः ग्रन्थः अस्ति, तत् महाभाष्ये अपि नन्दिकेश्वरकाशिकापाठः विद्यते. तत् महाभाष्ये मुद्रितः विद्यते. महाभाष्यग्रन्थे, अद्यतनमहाभाष्यस्य ग्रन्थे मुद्रितः विद्यते नन्दिकेश्वरकाशिकापाठः. तत्र मुद्रितः विद्यते. तत्र एषः श्लोकः विद्यते, नृत्तावसाने नटराजराजो ननादढक्कां नवपञ्चवारम् उद्धर्तुकामः सनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम्. तत्र सनकादिमुनयः महादेवं मनसि निधाय ते तपः आचरितवन्तः ब्रह्मज्ञानप्राप्त्यर्थम्. तदा एव पाणिनिरपि तत्र हिमालयं गत्वा, पूर्वं सः मूढमतिः आसीत्, गुरुपत्न्या प्रेरितः सः हिमालयं गत्वा तपः आचरितवान्। शिवः ननादडक्कां नवपञ्चवारं स्तनकादिसिद्धान् उद्धर्तुकामः अपि च पाणिनीम् उद्धर्तुकामः शिवसूत्रजालम् एतानि सूत्राणि नवपञ्चवारडक्कनिनादेन सूत्राणि बहिराग्ध्वनिरूपेण आगतानि स एव माहेश्वरसूत्राणि इति उच्यते इति एषः श्लोकः प्रमाणरूपेण विद्यते। महेश्वरात् आगतानि चतुर्दशसूत्राणि अस्यैव चतुर्दशसूत्राणामेव वर्णसमाम्नायः इति नामान्तरं विद्यते। आम्नायो नाम वेदः, वेदसदृशप्रामाण्यम् एतेषां सूत्राणां विद्यते इति भावः। अन्यत् प्रमाणम् येनाक्षरसमाम्नायमधिगम्य महेश्वरादिति मङ्गलाचरणं यत् क्रियते अस्माभिः पाणिनीयशिक्षामध्ये विद्यते स श्लोकः। तेनैव कृष्णं व्याकरणं प्रोक्तं सम्पूर्णं व्याकरणं व्याकरणशास्त्रं सूत्ररूपेण प्रोक्तं पाणिनिना इत्यपि श्लोकः विद्यते। इदानीं प्रश्नद्वयमासीत्, किमर्थं माहेश्वरसूत्राणाम् उपदेशः मातृकापाठादेव इष्टसिद्धिः भवति किल, किमर्थं माहेश्वरसूत्राणाम् उपदेशः कर्तव्यः इति प्रश्नस्य उत्तरं न तु वर्णस्वरूपबोधार्थम् अनादिसंज्ञार्थम् इत्येव आगतम्। एतेषां सूत्राणां प्रामाण्यमस्ति वा इति प्रश्ने कृते प्रामाण्यम् अवश्यमस्माभिः स्वीकर्तव्यम् इति पुराणोक्तश्लोक आधारेण पाणिनिरचितश्लोक आधारेण अस्माभिः स्वीकर्तव्यं विद्यते। इदानीं अग्रिम सूत्रं नाम किम् इति विषयप्रवेशात् पूर्वम् एकः प्रश्नः तत्र सुजाता भगिनी पृष्टवती। प्रिया भगिनी पृष्टवती मृदुव्यञ्जनकर्कषव्यञ्जनयोः भेदः किम् इति। सम्यक् पृष्टं भगिनि, मया विस्मृतं वक्तुम्, अवश्यं वदामि। तत्र मृदुव्यञ्जनः इत्युक्ते एतदेक संज्ञामात्रम्, इट् इस् जस्ट् अ सैन् कन्वेन्शन्, इट् इस् जस्ट् अ नेम् मृदुव्यञ्जनम्। अस्माभिः मृदुव्यञ्जनं कर्कषव्यञ्जनम् इति व्यवहारः क्रियते, परन्तु मृदुव्यञ्जनं नाम अन्तस्थाः नाम यरलवाः अन्तस्थाः वर्गस्य तृतीयचतुर्थपञ्चमवर्णाः एतानि एव मृदुव्यञ्जनानि इति उच्यन्ते। कर्कषव्यञ्जनानि इत्युक्ते प्रथमवर्गस्य प्रथमद्वितीयवर्णाः ष ष स एते कर्कषव्यञ्जनानि इति उच्यन्ते। अत्र भेदः मृदुकर्कष इति कथम् आगतम् इति विषयं ज्ञातुम् अस्माभिः अग्रे गन्तव्यम् इत्युक्ते स्थानप्रयत्नविवेकस्य ज्ञानम् अस्माभिः अक्षराणाम् उत्पत्तिस्थानानि अपि च प्रयत्नः एतस्य विषये अस्माभिः किञ्चित् ज्ञातव्यं भवति। तत्तु अस्मिन् ग्रन्थे एव अस्य प्रकरणे एव अस्ति, संज्ञाप्रकरणे एव अस्ति। मृदुव्यञ्जनः कर्कषव्यञ्जनः, हश् नाम प्रत्याहारः, खर्ना प्रत्याहारः इत्यादि अस्मिन् ग्रन्थे एव अग्रिमकक्षाद्वये वा कक्षात्रये वा मध्ये आगमिष्यति। अवश्यं वदामि, इदानीम् अस्माभिः एवं ज्ञातव्यम्, वर्गस्य तृतीयचतुर्थपञ्चमवर्णाः अन्तस्थाः हकारः मृदुव्यञ्जनानि, वर्गस्य प्रथमद्वितीयवर्णाः ऊष्माणः कर्कषव्यञ्जनानि इति अस्माभिः ज्ञातव्यं भवति। इदानीं तत्र मूले किम् अस्ति पुनः मूलं प्रति अस्माकं दृष्टिः भवेत् हल् इति माहेश्वराणि सूत्राणि इदानीं माहेश्वराणि इत्यस्य अर्थम् अस्माभिः ज्ञातम् महेश्वरात् आगतानि तत्र अस्माभिः प्रमाणम् माहेश्वरसूत्राणाम् उद्देशः इत्यादिकं ज्ञातम् सूत्रं नाम किम् सूचनात् सूत्रम् इति वदन्ति इत्युक्ते सूत्रलक्षणं शास्त्रकारैः एवमुच्यते अल्पाक्षरम् असन्दिग्धम् सारवत् विश्वतो मुखम् अस्तोभम् अनवद्यं च सूत्रम् सूत्रविदो विदुः अल्पाक्षरम् सूत्राणां लक्षणं तत्र ब्रह्मसूत्राणि सन्ति धर्मसूत्राणि सन्ति व्याकरणसूत्राणि सन्ति मीमांसासूत्राणि सन्ति सूत्रं नाम किम् सर्वत्र शास्त्रे प्रयोगः विद्यते तत्र इट् इस् आङ्ग्लभाषायां किञ्चित् वदामि इट् इस् अ वे टु कम्प्रेस् नालेज् विच् द एन्शियण्ट् सेजस् हेड् फौण्ड् थ्रू इन् संस्कृत् दिस् नालेज् कम्प्रेशन् इस् अ वेरि युनीक् थिङ्ग् विच् इस् फौण्ड् इन् अवर् एन्शियण्ट् नालेज् सिस्टम्स् The compression was such that only the words, the number of words were compressed. However, the total meaning or the tattva or the philosophy which had to be expressed by those words was always evident. That is, kevalam shabda sankshepaha sutrana madhye vidyate natu artha sankshepaha. Suchana sutram sankshepena एकस्य वस्तुनः कथनम् वस्तुतत्त्वस्य कथनम् इदानीं सूत्रलक्षणम् अत्र तदेव पश्यामः अल्पाक्षरम् सूत्राणि अल्पाक्षराणि भवन्ति पाणिनेः सूत्रविषये तु एका परिभाषा अस्ति पुत्रोत्सवं मन्यन्ते वैयाकरणाः इति भवान् महोदयः अस्ति वा नास्ति एकनिमिषं तत् स्मरामि अहं परिभाषेन्दुशेखरः इति एकः ग्रन्थः अस्ति तत्र एका परिभाषा उक्तं नागेशभट्टेन अस्य तस्य सारः एवमस्ति परिभाषां सम्यक् न स्मरामि पुत्रोत्सवं मन्यन्ते वैयाकरणाः इति आगच्छति इत्युक्ते एकं वर्णं यदि अनर्थकं वा एकं वर्णं वैयाकरणैः न्यूनतया प्रयोक्तुं शक्यते चेत् इदानीं वृद्धिरादैचिति सूत्रमस्ति वृद्धिरात् इत्येतेनैव कार्यसिद्धिर्भवति चेत् तर्हि पुत्रोत्सवः यथा पुत्रोत्सवः यदा भवति तदा आनन्दः कथं भवति सर्वेषां तादृश आनन्दं लभन्ते वैयाकरणाः इत्युक्ते सूत्राणां विषये पाणिनिसूत्राणां विषये विशेषस्तु अल्पाक्षरम् अतिसंक्षिप्तं विद्यते सूत्राणि इट् हेस् द मिनिमम् पासिबल् लेटर्स् असन्दिग्धं तर्हि वृद्धिरादैच् किमर्थं वृद्धिः वृ इत्येव वदामः वृ इत्येव वदामश्चेत् अस्माकं ज्ञानं न भवति ಏವಂ ಅಲ್ಪಾಕ್ಷರಮಿ ಭವೇತ್ ಸೂತ್ರಂ ಅಸಂದಿಗ್ಧಮಿ ಭವೇತ್. ಅಸಂದಿಗ್ಧಂ ನಾಮ ಸಂದೇಹರಹಿತಂ. ಅಸ್ಮಾಕಂ ಮನಸಿ ಸಂದೇಹಃ ಪುನಃ ನ ಭವೇಯುಃ. ವೃ ಇತ್ಯುಕ್ತೆ ವೃಣೋತಿ ವಾ ವೃದ್ಧಿರ್ವಾ ವ್ರಿಯತೆ ವಾ ಯತ್ಕಿಂ ತತ್ರ ಇತಿ ವೃ. ಅಸಂದಿಗ್ಧಮಿ ಭವೇತ್. ಸಾರವತ್ ಬಹು ಗಂಭೀರಂ ಭವೇತ್. ಗಂಭೀರಂ ಇತ್ಯುಕ್ತೆ ವಿಷಯಸ್ಯ ವಿಷಯ ಗಾಂಭೀರ್ಯಂ ಇತ್ಯುಕ್ತೆ ಯತ್ ವಿಷ ಯಹ ಅರ್ಥಃ ಸೂತ್ರೇಣ ವಕ್ತವ್ಯಃ ಸಯೇವ ಅರ್ಥಃ ವದೇತ್ ಸ ಸೂತ್ರ ತೇನೈವ ಸೂತ್ರೇಣ ಸಯೇವ ಅರ್ಥಃ ಅವಶ್ಯಂ ವಕ್ತವ್ಯಂ. ವಿಶ್ವತೋ ಮುಖಂ ವಿಸ್ತೃತೋಪಯೋಗಿ ಸೂತ್ರಸ್ಯ ಪ್ರಯೋಜನಂ ಭವೇತ್. ಇತ್ಯುಕ್ತೆ ಏಕೇನ ಸೂತ್ರೇಣಾಪಿ ಅನರ್ಥಕ್ಯೇನ ನ ಭವಿತವ್ಯಂ. In English, if I have to say, two sutras, one sutra cannot be made redundant by another sutra. Every sutra needs a prayojanam. Prayojanam means a benefit or some usage somewhere. Somewhere it has to be applied. Vishvato mukham, vistuto payogi. If one sutra can be applied at 100 places, such sutras should be made. That is vishvato mukham. ಅಸ್ತೋಭಂ ವ್ಯರ್ಥಾಂಶ ರಹಿತಂ. ವ್ಯರ್ಥಾಂಶ ನೌ ಯು ಹ್ಯಾವ್ ಸರ್ಟನ್ ಸೂತ್ರಸ್. ಫಾರ್ ಎಕ್ಸಾಂಪಲ್ ಪೃಥಕ್ ವಿನಾ ನಾನಾಭಿಸ್ತೃತೀಯಾನ್ಯತರ ಸ್ಯಾಂ ಇತಿ ಏಕಂ ಸೂತ್ರಂ ಕಾರಕ ಪ್ರಕರಣೆ ವಿದ್ಯತೆ. ತತ್ರ ಅನ್ಯತರ ಸ್ಯಾಂ ಕಿಮರ್ಥಂ ಪೃಥಕ್ ವಿನಾ ನಾನಾಭಿಸ್ತೃತೀಯಾ ಇತ್ಯೇವ ಇತ್ಯೇವಮೇವ ಅಸ್ತು. ಅನ್ಯತರಸ್ಯಾಂ ಇತಿ ನಾವಶ್ಯಕಂ ಇತಿ ಅಸ್ಮಾಭಿಃ ಪ್ರಶ್ನ ಕ್ರಿಯತೆ ಚೇತ್ ತದಾ ಅನ್ಯತರಸ್ಯಾಂ ಇತ್ಯಸ್ಯ ಅಯೋಗೇನ. ಅಯೋಗೇನ ಇತ್ಯುಕ್ತೆ ಸೂತ್ರೇ ಅಯೋಗೇನ. ಅಸ್ಮಾಭಿಃ ಕೇಕೆ ಅನರ್ಥಾಃ ಸಂಭವಿತುಂ ಅರ್ಹಂತಿ ಇತಿ ಭಾಷ್ಯಕಾರಃ ವದತಿ. ಭಾಷ್ಯೇ ವಾ ಯತ್ರ ಕುತ್ರಾಪಿ ದೀಕ್ಷಿತೈಃ ವಾ ಅನ್ಯೈಃ ವೈಯಾಕರಣೈಃ ಉಚ್ಯತೆ. ಅತಃ ವ್ಯರ್ಥಾಂಶರಹಿತಂ ಏಕಸ್ಮಿನ್ ಸೂತ್ರೇ ಏಕಃ ಅಂಶಃ ಅಪಿ ವ್ಯರ್ಥಃ ನ ಭವೇತ್ ತಥಾ ಅಸ್ಮಾಭಿಃ ಸೂತ್ರರಚನಾ ಕರ್ತವ್ಯಾ. ಅನವದ್ಯಂ ನಿರ್ದೋಷಂ ಭವೇತ್ ಸೂತ್ರೇವ ವ್ಯಾಕರಣದೋಷಾಃ ಭವಂತಿ ಚೇತ್. ಸೂತ್ರೇವ ವಿಭಕ್ತಿದೋಷಾಃ ಸಮಾಸದೋಷಾಃ ಭವಂತಿ ಚೇತ್ ತತ್ತು ವ್ಯಾಕರಣ ಸೂತ್ರಂ ಸೂತ್ರೇವ ದೋಷಃ ತದಾ ಏವಂ ನಿರ್ದೋಷಮಪಿ ಭವೇತ್. ತತ್ರ ಪಾಣಿನಿ ಸೂತ್ರಾಣಾಂ ಮಧ್ಯೆ ತತ್ರ ಸೂತ್ರ ವಿಷಯೆ ಛಂದೋವತ್ ಸೂತ್ರಾಣಿ ಭವಂತಿ ಇತ್ಯಪಿ ಇತಿ ಉಕ್ತಿಃ ಅಸ್ತಿ. ಇತ್ಯುಕ್ತೆ ಪಾಣಿನಿ ಸೂತ್ರಾಣಿ ಛಂದೋವತ್ ವೇದವತ್ ಭವಂತಿ. ವೇದಸ್ಯ ಯಥಾ ಸಾಕ್ಷಾತ್ ಶಬ್ದ ಪ್ರಾಮಾಣ್ಯಂ ಸ್ವೀಕ್ರಿಯತೆ ತಾದೃಶ ಶಬ್ದ ಪ್ರಾಮಾಣ್ಯಮೇವ ಅಸ್ಮಾಭಿಃ ಪಾಣಿನಿ ಸೂತ್ರಾಣಾಂ ವಿಷಯೇ ಅಪಿ ಸ್ವೀಕರ್ತವ್ಯಂ ಇತಿ ಅಸ್ತಿ. ತದ ಅಗ್ರೆ ಏಕಸ್ಮಿನ್ ಸೂತ್ರಸ್ಯ ಏಕಸ್ಯ ಸೂತ್ರಸ್ಯ ಉದಾಹರಣಂ ಸ್ವೀಕೃತ್ಯ ಅಹಂ ಅಗ್ರೆ ಯೇ ಅನವದ್ಯಂ ನಿರ್ದೋಷಸ್ಯ ವಾ ಶಬ್ದ ಪ್ರಾಮಾಣ್ಯಂ ನಾಮ ಕಿಂ ಏತತ್ ಸರ್ವಂ ಅಹಂ ಅಗ್ರೆ ಅಸ್ಮಾಭಿಃ ಅಧ್ಯಯನಂ ಕರ್ತುಂ ಶಕ್ಯತೆ. ಇದಾನಿಂ ಪ್ರಧಾನತಯಾ ಸೂತ್ರ ಲಕ್ಷಣಂ ನಾಮ ಸೂಚನಾತ್ ಸೂತ್ರಂ ಅಲ್ಪಾಕ್ಷರಂ ಅಸಂದಿಗ್ಧಂ ಸಾರವತ್ ವಿಶ್ವತೋಮುಖಂ ಅಸ್ತೋಭಂ ಅನವದ್ಯಂ ಚ ಸೂತ್ರಂ ಸೂತ್ರವಿದೋ ವಿದುಃ. ಇತಿ ಅಸ್ಮಾಭಿಃ ಅಧೀತಂ. Thank you. क्षम्यतां कृपया पावर कार्ड मध्ये किञ्चित् दोषः आसीत्। हा अल्पाक्षरमसन्दिग्धं सारवत् विश्वतोमुखम् अस्तोभम् अरवद्यं च सूत्रं सूत्रविदो विदुः। एतदस्माभिः एतस्य श्लोकस्य कण्ठपाठः करणीयः। इदानीं प्रसङ्गवशात् अहं वार्तिकस्यापि लक्षणम् इदानीमेव वदामि। उक्तानुक्तदुरुक्तानां चिन्ता यत्र प्रवर्तते तं ग्रन्थं वार्तिकं प्राहुः वार्तिकज्ञामनीष्णः। इदानीं सूत्रकारः पाणिनिः, वार्तिककारः वररुचिः। सूत्रकारेण यदुक्तम् उक्तम्, सूत्रकारेण यद् न उक्तम्, सूत्रकारेण दुरुक्तम् क्लिष्टतया सन्दिग्धतया वा उक्तम्। दुरुक्तं नाम दोषेण उक्तम् इति न, क्लिष्टतया वा सन्दिग्धतया वा यदुक्तम्। एतेषां चिन्तनं यत्र क्रियते तानि एव वार्तिकानि इति उच्यन्ते। अत एव वार्तिककारः किं करोति, एकस्य सूत्रस्य विषये यदा महाभाष्ये चर्चा विद्यते वार्तिकानि सः वदति। इदानीम् अत्र वृद्धिरादैच् एवं न भवितव्यम्, किमपि अन्यः शब्दः अपि भवेत् इत्यादिकं सः वदति। तदा भाष्यकारः किं करोति, वार्तिकस्य सूत्रस्य लक्षणम् उभयमपि स्वीकृत्य स्वमतं वदति पुनः, न न न आचार्येण पाणिनिना एवम् उक्तम्, अस्माभिः एवं स्वीकर्तव्यम्, एवं न स्वीकर्तव्यं, तत् कथं ज्ञायते, वा सूत्रकारेण एवं प्रयोगः कृतः, एषः प्रयोगः एव प्रमाणम्, एवं प्रमाणानि सः लोकप्रामाण्यं तत्र न्यायप्रामाण्यं लौकिकन्यायप्रामाण्यम् इत्यादि लौकिकदृष्टान्तान् उक्त्वा एव भाष्यकारः समाधानं ददाति। एवमेव वार्तिकस्य एतदेव लक्षणं। तर्हि भाष्यस्य किं लक्षणम् इत्युक्ते, सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुसारिभिः, स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः इति श्लोकः अस्ति। भाष्ये सूत्रार्थः वर्ण्यते, सूत्रार्थः कथमागतः इति वर्ण्यते, सूत्रानुसारिभिः इत्युक्ते वार्तिककारैः वा अन्यैः सूत्रानुसारिभिः किम् उच्यते, स्वपदानि भाष्यस्य स्वयमेव स्वपदानि भाष्यपदानि इति, स्वपदानि इत्युक्ते भाष्यपदानि वर्ण्यन्ते भाष्यं भाष्यविदो विदुः। एतदेव भाष्यस्य लक्षणम्। तत्र सर्वेषां व्याख्यानं यदस्ति, इदानीं कैयटः भाष्यस्य व्याख्यानं लिखितवान्, एवमेव व्याख्यानग्रन्थाः यत्र सन्ति, व्याख्यानं नाम किं, पदच्छेदः पदार्थश्च विग्रहो वाक्ययोजना आक्षेपश्च समाधानं व्याख्यानं षड्विधं मतम्। पदच्छेदः नाम एतद् ज्ञातुं शक्यते, पदच्छेदः नाम पदानां सन्धिविभागः इत्यादिकं, पदार्थः नाम प्रत्येकस्य पदस्य अर्थविवरणं, विग्रहो नाम समासविभागः, वाक्ययोजना नाम अन्वयः क्रियापदेन अन्वयः, आक्षेपः पूर्वपक्षः, समाधानं नाम सिद्धान्तः। एतदेव व्याख्यानस्य लक्षणम्। इदानीं लघुसिद्धान्तकौमुद्यामपि इति माहेश्वराणि सूत्राणि अनादिसंज्ञार्थानि इति उक्तिः अस्ति। तत्र अस्मात् पूर्वपक्षाणां प्रश्नः एव अस्माभिः स्वीकृतम्। इदानीम् अत्र दृश्यते चेत् पूर्वपक्षाणां प्रश्नः एव अत्र स्वीकृतम्, किमर्थं माहेश्वरसूत्राणाम् उपदेशः मातृकापाठादेव इष्टसिद्धिः, ननु इमानि सूत्राणि मुनित्रयग्रन्थबहिर्भूतत्वात् अप्रामाण्यम् इति शङ्कां निराकर्तुमाह माहेश्वराणि इति। एतत् सर्वं पूर्वपक्षसिद्धान्तरूपेण उच्यते। एतदेव व्याख्यानस्य लक्षणम्। व्याख्यानस्य लक्षणं नाम पदच्छेदः पदार्थः, विग्रहो वाक्ययोजना, आक्षेपश्च समाधानम्, एतद् व्याख्याने विद्यन्ते। इदानीं ప్రసంగవశాత్ అస్మాభిః సూత్రాణాం వార్తికానాం భాష్యానాం లక్షణం అపి జ్ఞాతం. పునః సూత్రాణాం విషయే ఆగచ్చామః. ఇతి మాహేశ్వరాని సూత్రాణి అనాది సంజ్ఞార్థాని. ఇదానీం మాహేశ్వరాణి మహేశ్వరాత్ ఆగతాని ఇతి జ్ఞాతం. సూత్రాణి సూత్రం నామకిం, సూచనాత్ సూత్రం, శబ్దసంక్షేప యత్ర విద్యతే, అర్థసంక్షేప యత్ర న విద్యతే సయేవ సూత్రం. పరంతు అల్పాక్షరం భవేత్, అసందిగ్ధం భవేత్, సారవత్ భవేత్, విశ్వతోముఖం, సర్వవ్యాపి సర్వప్రయోజనకారి భవేత్, అస్తోభం అనవద్యం చ సూత్రం. ఏతాని షడ్డేవ సూత్రస్య లక్షణాని ఇతి అస్మాభిః జ్ఞాతం. ఇదానీం మాహేశ్వర సూత్రాణి అనాది సంజ్ఞార్థాని. అనాది సంజ్ఞార్థాని నామ కిం, సంజ్ఞా నామ కిం? ప్రథమం అత సంజ్ఞా ప్రకరణం ఇతి అస్తి. సంజ్ఞా ప్రకరణం నామ కిం? గివింగ్ ఎ నేమ్ టు సంథింగ్, దట్ నేమ్ ఈస్ కాల్డ్ సంజ్ఞా అండ్ దట్ థింగ్ ఈస్ కాల్డ్ సంజ్ఞి. సంజ్ఞాం వినా లోకే వ్యవహార అసంభవ భవతి. ఇదానీం దేవదత్త అస్తి, దేవదత్త బాలక అస్తి, దేవదత్త ఇదానీం బాలక ఇత్యపి సంజ్ఞా, దేవదత్త ఇతి తస్య నామ అస్తి. ప్రథమం తస్య శరీరం పాద హస్తాదికం దృష్ట్వా యః కోపి పురుషః అస్తి, ఇదానీం తమ్ ఆహ్వయితుం ఇచ్చామి తర్హి కిం వక్తవ్యం ఇత్యేవ జిజ్ఞాసా విద్యతే. యది అహం జానామి సా దేవదత్తః ఇతి, తదా దేవదత్త అత్ర ఆగచ్చ, దేవదత్త కార్యం కురు ఇతి మయా వక్తుం శక్యతే. సంజ్ఞాం వినా లోకే వ్యవహారః న భవత్యేవ. అతః సంజ్ఞా నామ కిం, సంజ్ఞీ నామ కిం? ఇదానీం అణ్ ఇతి సంజ్ఞా. అణ్ సంజ్ఞాయాః సంజ్ఞినః కే ఇత్యుక్తే ప్రత్యాహార జ్ఞానం యదా భవతి తదా అస్మాభిః జ్ఞాతవ్యం, అస్మాభిః జ్ఞాస్యతే అ ఇ ఉ ఇత్యాది వర్ణాః అణ్ ఇతి ఉచ్యంతే. ఏవం సంజ్ఞాసంజ్ఞీ భావః అస్తి. సంజ్ఞా ఇత్యుక్తే అణ్ ఇత్యేవ సంజ్ఞా. సంజ్ఞీ ఇత్యుక్తే అ ఇ ఉ ఏతే వర్ణాః అణ్ సంజ్ఞాయాః సంజ్ఞినః. అవగతం వా సర్వైః సంజ్ఞా నామ కిం, సంజ్ఞీ నామ కిం? పునః వక్తవ్యం వా? అవగతం. ఇదానీం సంజ్ఞాయాః అభావః యది భవతి లోకే తదా కా స్థితిః భవతి ఇతి పశ్యామః. ఇదానీం ఏకః ఇదానీం దేవదత్తస్య విషయే ఏవ పశ్యామః. దేవదత్తః ఇది సంజ్ఞా నాస్తి తస్య. తస్య పాదద్వయం విద్యతే, హస్తద్వయం విద్యతే, నేత్రద్వయం విద్యతే, సహ పీనః అస్తి. ఇదానీం సుజాత భగినీ ఏకం ప్రశ్నం పృష్టవతి. ప్రత్యాహారే విద్యమానాని అక్షరాణి సంజ్ఞీ ఇతి వక్తుం శక్యతే వా? అవశ్యం శక్యతే. తస్య ప్రత్యాహారస్య తేవ సంజ్ఞినః ఇతి వక్తుం శక్యతే. ఇదానీం అణ్ ప్రత్యాహారస్య అ ఇ ఉ సంజ్ఞినః భవంతి.
अच् प्रत्याहारस्य अन्ये संज्ञिनः भवन्ति, हल् प्रत्याहारस्य अन्ये संज्ञिनः भवन्ति। एवं संज्ञां विना लोके व्यवहारः न भवति इति अस्माभिः ज्ञातं। प्रायः अस्य विषयस्य इतोपि व्याख्यानं नावश्यकम्। तर्हि अग्रे गच्छामः। ननु माहेश्वरप्रणीतसूत्राणां वैयाकरणसिद्धान्तप्रकाशेन आयोगाभावात् इह तस्य उपन्यासः व्यर्थः। तदेव मया उच्यते। यदि इदानीम् अस्माभिः अस्माकम् उद्देशः कः? अनुबन्धचतुष्टये अस्माभिः ज्ञातं व्याकरणसिद्धान्तानां ज्ञानमेव अस्माकम् उद्देशः। तर्हि अनाद् एतानि माहेश्वरसूत्राणि किं व्याकरणसिद्धान्तानि वदन्ति वा, सिद्धान्तप्रकाशं कुर्वन्ति वा इति प्रश्नः क्रियते पूर्वपक्षिणा। तदा समाधानमुद्यते, यद्यपि एतेषां सिद्धान्तप्रकाशः साक्षात् न क्रियते, परन्तु सूत्राणां मध्ये एतेषां प्रयोगः विद्यते, येनैव व्याकरणस्य व्यवहारः आगच्छति। एवम् अनादिसंज्ञार्थानि प्रत्याहारकरणमेव एतेषां प्रयोजनम्। प्रत्याहारः कुत्र उपयुज्यते? शास्त्रे उपयुज्यते। अतः शास्त्रनिर्वाहार्थं प्रत्याहारः आवश्यकः। प्रत्याहारार्थं माहेश्वरसूत्राणि अपेक्षितानि। एवम् अस्य प्रयोजनम् आगतम्। अनादिसंज्ञार्थानि, आदि इति अस्ति, आदिपदम् अस्ति, आदिना अनादयः के इति अस्माभिः प्रश्नः क्रियते चेत् अण् अक् अच् एते एव आदिशब्देन गृह्यन्ते। अण् आदिः यासां संज्ञानां ताः एव अनादयः, अनादयः संज्ञाः, अनादिसंज्ञाः, अनादयः च ताः संज्ञाः, ताः एव अर्थाः, ता अनादिसंज्ञाः एव अस्माकं प्रयोजनम्। अर्थशब्दस्य अर्थम् अस्माभिः ज्ञातव्यम्। अर्थशब्दस्य बहवो अर्थाः भवन्ति। कृपया सम्यक् शृण्वन्तु। अर्थशब्दस्य बहवो अर्थाः सन्ति। अर्थशब्दस्य के अर्थाः भवन्तः जानन्ति लौकिकप्रयोगे? कृपया टैप् क्रियते वा। अर्थं नाम किम्? धनम्। सुधा भगिनी उक्तवती अर्थं नाम धनम्, मीनिङ्ग्, इच्छा। वेरि गुड्। तत्त्वं वसुधा उक्तवती, तत्त्वं, धनम् इत्यादि शब्दाः सन्ति। व्याकरणशास्त्रे कदाचित् अर्थशब्दस्य प्रयोजनम् इत्यपि स्वीक्रियते। अत्र अनादिसंज्ञार्थानि इत्यत्र अनादिसंज्ञाकरणमेव प्रयोजनम् एतेषाम्। अर्थशब्दस्य अस्मिन् ग्रन्थे अनादिसंज्ञार्थानि इति वाक्ये प्रयोजनम् इत्यर्थः। ज्ञातं वा? अस्तु। अनादयः च ताः संज्ञाः, ताः एव प्रयोजनम् एतेषां सूत्राणि इति, अत एव अनादिसंज्ञार्थानि। इदानीम् अस्माभिः एका पङ्क्तिः ज्ञाता इति, माहेश्वराणि सूत्राणि अनादिसंज्ञार्थानि। येषां सूत्राणाम् अनादिसंज्ञाद्वारा व्याकरणशास्त्रे उपयोगः अस्ति, अतः एतेषां न आनर्थक्यम्। इत्युक्ते एतेषां प्रथमोच्चारणेन तत्र पाणिनिना अस्मिन् ग्रन्थे अपि, तत्र यद्यपि शास्त्रे एतेषाम् उपयोगः अस्ति, अतः एतेषाम् अनर्थक्यं न इति उच्यते. इदानीम् अग्रिमवाक्यं प्रति गच्छामः. येषाम् अन्त्या इतः, येषाम् येषाम् इत्युक्ते माहेश्वरसूत्राणाम् उदाहृतसूत्राणाम् उपर्युक्तसूत्राणाम् अन्त्याः. इदानीम् एका संज्ञा दीयते, अन्त्याः, अन्ते भवः, अन्ते भवाः नकारादिवर्णाः. इदानीं पुनः माहेश्वरसूत्राणां माहेश्वरसूत्रस्य पुस्तकं तत्र पुस्तकम् उद्घाट्य पश्यामः. आ ई उन् इत्यत्र अन्ते विद्यमानः वर्णः नकारः, ऋल्क् इत्यत्र ककारः, एवोङ् इत्यत्र नकारः, अयौच् इत्यत्र चकारः. एवम् अन्ते विद्यमानाः नकारादिवर्णाः अन्त्याः. एतेषाम् अन्त्याः वक्ष्यमाणेन हलन्त्यम् इति सूत्रेण इत्संज्ञकाः भवन्ति. इदानीम् अत्रैव वरदराजः किं करोति, येषाम् अन्त्या इतः. इदानीम् इतः इति संज्ञा कथमागतम् इति प्रश्ने कृते हलन्त्यम् इति सूत्रम् अग्रे वक्ष्यमाणमस्ति अस्माभिः, तेन एव एतेषाम् इत्संज्ञा भवति इति. इत्संज्ञा नाम इत् नाम संज्ञा. दि लास्ट् लेटर्स् आफ् आल् दि माहेश्वर सूत्रास् आर् गिवन् ए नेम् काल्ड् इत्. From where did we get this it? We are going to explain that in the next sutra, Halantyam. Halantyam is a sutra which explains that the sutra, the last letters of all these sutras get a name called it. Idani, Yesham Antya Itaha, Udahrta Sutranam, Maheshwara Sutranam, Antyaha, अन्ते ये वर्णाः सन्ति इत्युक्ते प्रत्येकसूत्राणाम् अन्ते ये वर्णाः सन्ति तेषाम् हलन्त्यम् इति सूत्रेण तद् न उक्तम् अत्र. तद् व्याख्यानेन अस्माभिः ज्ञातव्यं भवति. हलन्त्यम् इति सूत्रेण इत्संज्ञकाः भवन्ति. इदानीम् अग्रिमवाक्यं प्रति गच्छामः. हकारादिषु अकारः उच्चारणार्थः. पुनः माहेश्वरसूत्रं पश्यामः. हयवरट् लण् इत्यादिकमस्ति. तत्र ह य व र इत्यत्र हकारस्य ह प्लस् अ, हक् ह व्यञ्जनमस्ति, अकारः स्वरमस्ति. तत्र पुनः पुनः अकारः तत्र अस्ति. अकारस्य किं प्रयोजनम्? पूर्वमेव ऐ उण् इत्यत्र अकारः उक्तः. किमर्थम् अकारस्य पुनः पुनः कथनम् इति प्रश्ने कृते, हकारादिषु अकारः उच्चारणार्थः एव प्रयोजनम्, उच्चारणमेव प्रयोजनम्. मुखसुख उच्चारणम् अस्माभिः करणीयः. यथा अ आ क ख ग ग ङ इत्येव वदन्ति, क क ग ग न इति एवं न वदामः. किमर्थं न वदामः? उच्चारणे क्लेशः सम्भवति. क्लेशदूरीकरणाय अस्माभिः किं क्रियते? उच्चारणसौकर्यार्थम् अकारस्य योगः क्रियते. एषः एकं समाधानम्, हकारादिषु अकारः उच्चारणार्थः. तत्र अस्माभिः ज्ञातव्यं भवति यत् व्यञ्जनम् अन्वद्भवति इति. व्यञ्जनशब्दस्य अर्थ निष्पत्तिः कथम्? स्वयं राजन्ते इति स्वराः, अन्वद्भवति इति व्यञ्जनम्. अन्वद्भवति नाम अच् धर्मम् अनुसरति. इदानीं ककारः क इति वर्णः, व्यञ्जनवर्णः अकारेण युज्यते चेत् क क क भवति, इकारेण युज्यते चेत् की भवति, उकारेण युज्यते चेत् उक उ कु भवति, एवम् एकारेण युज्यते चेत् के भवति. एवं तत्र अचं विना व्यञ्जनानां स्थान उच्चारणमेव न सम्भवति इति इत्यपि अस्माभिः वक्तुं शक्यते. तत्र प्रमाणं किमपि अस्ति वा? भाष्यकारेण किमपि उक्तं वा? नो चेत् पाणिनिना कुत्रापि उक्तं वा एतस्य विषये? तत्र उच्चैरुदात्तः इति सूत्रे भाष्ये पुनः अंतर न पुनरंतरेण अचम व्यंजने व्यंजनस्य उच्चारणमपि भवति इति भाष्यकारः वदति इत्युक्ते न पुनः अंतरेण अचम व्यंजनस्य उच्चारणं भवति इति तत्र व्यंजनं विना सॉरी अचम अचम विना व्यंजनस्य उच्चारणमेव न संभवति इति भाष्यकारः वदति लण् मध्ये तु इत्संज्ञकः इदानीं तर्हि सर्वेषु प्रत्याहारेषु स्थित अकारः हकारात् सर्वेषु सूत्रेषु स्थित अकारस्य उच्चारणार्थमेव प्रयोजनम् परन्तु लण् सूत्रे लण् इति सूत्रमस्ति तत्र लण् सूत्रे लण् इति सूत्रं हयवरट् अनन्तरं लण् इति अस्ति लण् सूत्रे ल प्लस् अ प्लस् न इति तत्र वर्णानां विभागः तत्र लकारोत्तर अकारः यद् विद्यते तस्य इत्संज्ञा अस्माभिः क्रियते लकारोत्तर अकारः यः वर्णः अस्ति तस्य इत्संज्ञा भवति किमर्थं तस्य इत्संज्ञा करणीयम् अन्तिमवर्गवर्णस्यैव इत्संज्ञा इति पूर्वमुक्तम् इदानीं किमर्थं लण् सूत्र मध्ये अकारस्य लकारोत्तर अकारस्य इत्संज्ञा करणीया इत्युक्ते रप्रत्याहार सिद्ध्यर्थं र इति एकः प्रत्याहारः अस्माकं कृते अपेक्षितः उरण्परः अण् र इति प्रत्याहार सिद्ध्यर्थम् अपेक्षितं रप्रत्याहार सिद्धिः कथं भवति इति अग्रिमकक्षायां प्रत्याहारविषये ज्ञानं प्राप्नुमः इदानीम् अस्माभिः अस्मिन् कक्षायां माहेश्वरसूत्राणि अधीतानि इति माहेश्वराणि सूत्राणि अनादिसंज्ञार्थानि येषामन्त्यायितः हकारादिषु अकारः उच्चारणार्थः लण् मध्ये इत्संज्ञकः एतावत्पर्यन्तम् अस्माभिः अधीतम् किमपि संशयः अस्ति चेत् कृपया पृच्छन्तु अत्रैव अस्य कक्षायाः विरामं स्वीकुर्मः लण् हियर् देर् इस् ओन्ली वन् अकार रैट् हा आम् रघुवर्मा महोदयः पृष्टवान् तत्र एकः एव देर् इस् नो अकार आफ्टर् ल अस्ति महोदय अहम् अग्रिमकक्षायां पुनः स्लैड् मध्ये दर्शयामि लक ल लण् इत्यत्र अक्षरच्छेदः क्रियते चेत् ल अ न इति भवति अतः लकारोत्तर ल लकारोत्तर अकारः विद्यते पुनः रघुवर्मा महोदय पृष्टवान् द टकार इस् फार् प्रोनौन्सियेशन् रैट् द टकार इस् नाट् फार् प्रोनौन्सियेशन् वाट् इस् देर् आफ्टर् लकार इट् इस् नाट् फार् प्रोनौन्सियेशन् इट् इस् आल् इट् मे इट् हेस् गाट् प्रोनौन्सियेशन् एस् वन् आफ् इट्स् प्रयोजनम् बट् दट् इस् नाट् द ओन्ली प्रयोजनम् इट् हेस् ए इत्संज्ञा आल्सो अलाङ्ग् वित् इट् सो इट् विल् रिसल्ट् इन् द फार्मेशन् आफ् ए प्रत्याहारः